हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। अथ पुरुषोत्तम योगो नाम पञ्चदशोऽध्यायः। श्रीभगवानुवाच, ऊर्ध्वमूलं मदशाखम् अश्वत्थं प्राहुरव्ययम्, छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवेत्। अदश्योर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृत्था विषयप्रवाला, अदश्य मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके। न रूपमस्येह तथोपलभ्यते, नन्तो न चादेर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन चित्त्वा, ततः पदं तत्परिमार्गितव्यम् यस्मिन् गतानां निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यत्तः प्रवृत्ति प्रसृता पुराणी। निर्माणमोहा चितसङ्गदोषा आध्यात्मनित्या विनिवर्तकामा, द्वन्द्वैर्वमुक्ता सुखदुःखसङ्गै गच्छन्त्य मूढा पदमव्ययं तत्। न तद्भासयते सूर्यो न शशाङ्को न पावकः, यद्गत्वा न निवर्तन्ते तद्धाम परमं मम। ममैवांशो जीवलोके जीवभूतः सनातनः, मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः, गृहीत्वै तानि संयाति वायुर्गन्धानि वाशया। श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च, अधिष्ठाय मनश्चायं विषयानुपसेवते। उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं, विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्, यतन्तोऽप्यकृतात्मानो नयनं पश्यन्त्यचेतसः। यदादित्यगतं तेजो जगद्भासयतेऽखिलं, यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्। गामाविश्य च भूतानि धारयं महमोजसा, पुष्यामि चोषधि सर्वा सोमो भूत्वा रसात्मकः। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः, प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्। सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञानमपोहनं च, वेदैश्च सर्वैरहमेव विद्यो वेदान्तकृत्वेदविदेव चाहम्। द्वाविमौ पुरुषौ लोके क्षरक्षाक्षर एव च, क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः, यो लोकत्रयमाविश्य विवर्त्यव्यय ईश्वरः। तस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः, अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् स सर्ववित् भजति माम् सर्वभावेन भारत इति गुह्यतमम् शास्त्रम् इदमुक्तम् मया नघ एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यस्य भारत इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे।